अभोरे को अरजिपते रजीणा माहस्तयोरधिथ इन्द्रकृष्टेः वितोके अप्सुदनजे च सूरेव चन्दचरषडजो विवाचः त्वद्भिजेन्द्रपार्थिवानि विश्वाच्युताचिच्यावयन्ते रजांसि द्यावाक्षामा पर्वता सोमनानि विश्वम् दृढम् भयते अज्मन्नाते त्वङ्कुत्सेनाभिषष्टमिन्द्राशुषैजोध्यकुजभङ्गमिष्टौ दश प्रपित्वे अधसौर्यस्य मुषाजश्चक्रमविवेरपांसि त्वम् शताञ्जवशम्बरस्य पुरो जघन्था प्रतिनिदस्योः अशिक्षो यत्र शच्याशचेवो दिवो दासाजसुन्भते सुदक्रे भरद्वाजाजगृढते वसूनि स सत्यसत्त्वन्महतेरुणाजरथमातिष्ठतु विनृम्न भीमम् या हि प्रपथिन्नवसोपमद्रिक्प्रजश्रुतश्रावयचर षडिभ्यः